अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। प्रशासनेन एकत्रिंशदधिकद्विसहस्रतमवर्षपर्यन्तम् अटल पेंशन योजनायाः अनुवर्तनम्, प्रचार विकास कार्याणां कृते वित्तपोषणस्य विस्तारः च स्वीकृतः। असंघटित क्षेत्रस्य कर्मचारिभ्यः वृद्धावस्थायां आयस्य सुरक्षां प्रदातुं पञ्चदशोत्तरद्विसहस्रतमवर्षस्य मई मासे इयं योजना समारब्धा। अद्य नवदिल्ली नगरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये आयोजितायां वरिष्ठमन्त्रिसभायाम् अयं निर्णयः विहितः। एषा योजना अभिदातॄणां योगदानाधारेण षष्ठीवयसः अनन्तरं प्रतिमासं एकसहस्रतः पञ्चसहस्रपर्यन्तं निश्चितं न्यूनतमं निवृत्तिवेतनं प्रदीयते। अद्यावधि अस्याः योजनायाः अन्तर्गतं 65 कोटितोप्यधिकाः अभिदातारः नामांकिताः सन्ति। योजनैषा देशस्य समावेशी सामाजिक सुरक्षा संरचनायाः आधारशिला अस्तीति सिध्यते। केन्द्रीय इलेक्ट्रॉनिक्स अथ सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अवोचत् यत् एआई इत्यस्य विनिमयने न केवलं स्वतन्त्र नियमानाम् अनुपालनं स्यात्, अपि तु टेक्नो लीगल इति पद्धत्याः अनुसरणमपि कर्तव्यमिति। सः दावोस नगरे विश्व आर्थिक मञ्चे भाषणं कुर्वन् एतदुक्तवान् यत् पक्षपातः, गहन मिथ्याचारे इत्यादीनां संकटानां निवारणार्थं दृढतान्त्रिक साधनानाम् आवश्यकतायाः विषये अवधानं दातव्यमिति। सः इत्यपि अवोचत् यत् भारतं पक्षपातं न्यूनीकर्तुं, विश्वसनीयं गहनं मिथ्याभिज्ञानं समर्थयितुम्, अपि च एआई मॉडल्स इत्यस्य प्रयोगात् पूर्वं समुचितम् अज्ञानं सुनिश्चेतुं प्रौद्योगिकी ही विकासयति इति। अत्रान्तरे श्रीवैष्णवः दावोस नगरे विश्व आर्थिक मञ्चस्य पार्श्वे आईबीएम संस्थायाः सीईओ अरविन्द कृष्णम् अथ च मेटा संस्थायाः मुख्य वैश्विक कार्याधिकारी जोयल कप्लान इत्येतमपि मिलितवान्। सामाजिक प्रसार माध्यमे मंत्री अवोचत् यत् विश्व दृष्ट्या भारतं वैश्विक नवान्वेषणस्य प्रमुख चालक रूपेण अस्ति इति।
There are 5 layers in the AI architecture: the application layer, the model layer, the chip layer, the infra layer, and the energy layer. We are working on all the 5 layers. On the application layer, we will probably be the biggest supplier of services to the world, understand the working of that enterprise, and provide that service using AI applications. That's going to be the biggest factor of success or successful deployment of AI, because that's where ROI comes from.
पश्चिम बंगालस्य मतदातृ सूच्यां विशेष गहन पुनरीक्षण कार्यान्वयनं कर्तुं सर्वोच्च न्यायालयस्यानुगुणं निर्वाचनायोगेन दिङ्निर्देशाः प्रख्यापिताः। अत्रावधेयं वर्तते यत् अनया प्रक्रियया नाम्नां सूची सार्वजनिकरूपेण अनिवार्यतया प्रकाशिता भविष्यति। अद्यारभ्य बीटिंग रिट्रीट समारोहस्य पूर्वाभ्यास कारणात् नवदिल्ल्याः बहुषु क्षेत्रेषु गमनागमनं बाधितं स्यात्। यानस्य तावत् बाध्यता विजय चौक इत्यत्र सायं 4 वादनात् 6:30 वादनं यावत् भविष्यति। कृषि भवनं परितः अपि वाहनानां गमनागमनं न भविष्यति। पुरुष क्रिकेट क्रीडायां ह्यः नागपुरे 5 क्रीडाश्रृङ्खलायाः प्रथमायां T20 क्रीडायां भारतीय दलेन न्यूजीलैंड दलं 48 अंकैः पराजितम्। 5 क्रीडाश्रृङ्खलायाः द्वितीया स्पर्धा श्वः रायपुरस्य शहीद वीरनारायण सिंह अन्ताराष्ट्रिय क्रीडांगणे भविष्यति। इयं च स्पर्धा सायं 7 वादने समारप्स्यते। बैडमिंटन क्रीडायाः पुरुषैकल स्पर्धायां भारतस्य लक्ष्य सेनः हांगकांग देशस्य जेसन गुआवनं सम्मुखीकरिष्यति। अपि च किदाम्बी श्रीकांतस्य स्पर्धा चीनस्य ताइपे के चाउ तिएन चेन इत्येन सह भविष्यति इति वार्ताः।